अजम् सोम इन्द्र तुभ्यम् सन्तय तुभ्यम् पपते त्वमस्य पाहि त्वम् हयम् च कृषे त्वम् पवृष इन्दम् मदा आजयुज्याज सोमम् स ईम् रथो न भुरिषाणजोजिमहः पुरोणि सात देवसोऽनि आदेम् विश्वा न हुष्याणि जाता स्वरषातापन ऊर्ध्वा न वन्ता वाजर्नजो नियुत्वा अङ्किष्टजा माना सत्ये बहव आशम्भविष्ठः विश्ववारोत्र विनोदा इव त्वन्दोषेव धेदमनोऽसि सोम इन्द्रो न जो महाकर्माणि चक्ररहन्ता व्रत्राणामसि सोमपोर्भित पयित्वो न हि त्वमहिनाम्नाम् हन्ता विश्वस्यासि सोमदस्याः अग्निर्नजावन आसृज्यमा नो वृथापादांसि कृणुते न देश जनो न जध्वा महत उपब्दिर्यर्त्य सोमः पवमान ओर्मिम् एते सोमा अदिवाराण्यव्या दिव्यानकोशा सो अभ्रवर्षाः वृथा समुद्रम् सिन्धवाननेचे सुदासो अभिकलशाङ्कसृग्रन् शुष्मे शर्धानमारुतम् भवस्मानभिषस्ता दिव्याजथाबिट आपानभक्षो समदर्भवानः सहस्राप्साः प्रदनाशाण्णयज्ञः राज्ञानुदेवरुणस्य व्रतानि बृहद्गभीरन्तव सामधाम शचष्टमसि प्रियो न मित्रो दक्षाय्य अर्यमेवासि सोमा